चिरसन्देवां गौरीपुत्रविनायकं भक्त्यवेशं शरन्नितम् आयुष्कामार्थसिद्धये प्रथमाम्बकृतन्नं च एकं